इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। सम्पूर्णे मध्यप्रदेशे प्रायः 23 लक्षं छात्राः अद्य प्रातः 11:30 पञ्चाष्टमवर्गयोः बोर्ड इत्यस्य परीक्षाफलानि प्राप्स्यन्ति। परिणामानि राज्यशिक्षाकेन्द्रपोर्टल् इत्यत्र प्रकाश्यन्ते, यत्र छात्राः स्वस्य परिचयाङ्कपूरणेन परीक्षानुक्रमाङ्कम् उपयुज्य वा प्राप्तुं प्रभवन्ति। प्रक्रियां सुलभतरं कर्तुम् अधिकारिणः ऑनलाइन इति माध्यमेन उपलभ्यमानानां QR कोड्स इत्यनेनापि परिणामदर्शनं कर्तुं शक्ष्यन्ति इति उक्तवन्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना पश्चिम एशियाक्षेत्रे शान्तिं स्थापयितुं संवादस्य कूटनीतेः च आह्वानं कृतमस्ति। पश्चिम एशियाक्षेत्रे वर्तमानिकां संघर्षपूर्णां स्थितिमालक्ष्य ह्यः राज्यसभायां भाषमाणः श्रीमोदी अवदत् यत् भारतं डी एस्केलेशन इत्यस्य होर्मुज जलसन्ध्याः पुनः उद्घाटनञ्चेति विषयौ गाम्भीर्येण समुत्थापयदिति। श्रीमोदी हि अवदत् यत् अस्यां युद्धपरिस्थितौ अपि भारतीयानां नौकायानानां सुरक्षितसञ्चारार्थं कूटनीतिद्वारा भारतं निरन्तरं प्रयतमानः अस्ति। सः आश्वासितवान् यत् सर्वकारः पेट्रोल डीजल इत्यादिसहितं वात्यन्धन उर्वरकाणां सुगमपूर्तिं सुनिश्चितं करोतीति। प्रधानमन्त्री अवदत् यत् भारतस्य अर्थव्यवस्थायाः मूलभूतान्याधाराणि दृढानि सन्ति, सर्वकारश्च द्रुततया परिवर्त्यमानां स्थितिं निकटतया निरीक्षमाणः अस्तीति। सर्वकारेण अस्य वर्षस्य प्राकृतिक ग्यास अथ पेट्रोलियम उत्पादानां वितरणस्य स्थापन परिचालनादि सहितं अन्यसौकर्याणां विस्तार सम्बन्धितादेशः आवश्यक वस्तु अधिनियम 55/1929 इत्यस्यान्तर्गतम् अधिसूचितोऽस्ति। छत्तीसगढ़राज्यस्य मुख्यमंत्री विष्णुदेवसायः अद्य दीनदयाल उपाध्याय भूमिहीन कृषि श्रमिक कल्याण योजनान्तर्गतं प्रायः 5 लक्ष भूमिहीन कृषि श्रमिक कुटुम्बानां वित्तकोशेषु प्रायः 500 कोटिरूप्यकाणि प्रत्यक्षरूपेण प्रेषयति। स्थानान्तरणमिदं बलोदा बजार नगरात् भविष्यति, यत्र ग्रामीणसमाजस्य आत्यन्तिकतया दुर्बलवर्गान् समर्थयितुं राज्यस्य प्रतिबद्धतायाः प्रमुखं पदम् अस्तीति मन्यते। योजनान्तर्गतं सर्वकारः 10,000 रूप्यकाणां वार्षिक वित्तीय साहाय्यं योग्यानां परिवाराणां वित्तकोषेषु प्रत्यक्षतया प्रददाति। गुजरात विधानसभायां ह्यः 7 घण्टातः अधिककालस्य सुदीर्घकालिक वादविवादानन्तरं एकरूप नागरिक संहितायाः इत्युक्ते UCC विधेयकं बहुसंख्यकैः ध्वनिमतैः स्वीकृतम्। विधेयकं विवाहस्य विवाहविच्छेदस्य उत्तराधिकारस्य सहवाससम्बन्धस्य च नियमनार्थं धर्मस्य विचारं विना सामान्यविधिसम्बन्धिसंरचनायाः प्रस्तावं करोति। गुजरातराज्यस्य मुख्यमन्त्री भूपेन्द्रपटेलः विधेयकमिमम् उपस्थापितवान्। एकसप्ताहाभ्यन्तरे राज्यनियुक्तसमितिः UCC इत्यस्य कार्यान्वयनस्य विषये स्वस्य अन्तिमं प्रतिवेदनम् उपस्थापितवती। विधेयकं स्वीकृत्य उत्तराखण्डानन्तरं UCC इतीदं स्वीकृत्य गुजरातराज्यं देशस्य द्वितीयं राज्यम् अभवत्। प्रधानमन्त्री नरेन्द्रमोदी ह्यः श्रीलंकादेशस्य राष्ट्रपतिना अनुराग कुमार दिसानायके इत्यनेन सह दूरभाषद्वारा वार्तालापम् अकरोत्। सामाजिकमाध्यमे प्रधानमन्त्री मोदी इत्ययम् अवदत् यत् तौ पश्चिम एशियायाः विकसितां स्थितिं विश्व ऊर्जा सुरक्षां प्रभावितं कुर्वतां व्यवधानानां विषये विशेषतया चर्चां कृतवन्ताविति। तौ भारत श्रीलंका ऊर्जा सहकारस्य निर्माणार्थं क्षेत्रीय सुरक्षां वर्धयितुं च उद्दिष्टानां मुख्य उपक्रमाणां प्रगतिं समीक्षितवन्तौ। दिल्लीति केन्द्रशासित प्रदेशस्य मुख्यमंत्री रेखा गुप्ता अघोषयत् यत् नीति आयोगानुरूपं देहली संस्थानक थिंक टैंक इति नूतनं चिन्तन व्यवस्थां स्थापयितुं सर्वकारस्य योजना अस्ति। उपराज्यमिदञ्च उन्नत तन्त्रज्ञानस्य विनिर्माणस्य केन्द्ररूपेण स्थापयितुं नूतनानि सेमीकण्डक्टर अथ ड्रोन नीतयः प्रवर्तन्ते इति। अद्य छत्तीसगढ़राज्ये प्रथमा खेलो इंडिया जनजातीय क्रीडा आरभ्यन्ते। एप्रिल मासस्य तृतीय दिनांक पर्यन्तं प्रचलन्तासु क्रीडासु एथलेटिक्स, हॉकी, फुटबॉल, धनुर्विद्या, मल्लयुद्धं, भारोत्तोलनं, तरणं इत्यादीनि सप्तसु क्रीडा विभागेषु स्पर्धाः भविष्यन्ति इति वार्ताः।